श्रीवाराही सहस्रनामम्
ॐ ऐं ग्लौं वाराह्यै नमः ॐ ऐं ग्लौं वामन्यै नमः ॐ ऐं ग्लौं वामायै नमः ॐ ऐं ग्लौं बगलायै नमः ॐ ऐं ग्लौं वासव्यै नमः ॐ ऐं ग्लौं वसवे नमः ॐ ऐं ग्लौं वैदेह्यै नमः ॐ ऐं ग्लौं विरसुवे नमः ॐ ऐं ग्लौं बालायै नमः ॐ ऐं ग्लौं वरदायै नमः ॐ ऐं ग्लौं विष्णुवल्लभायै नमः ॐ ऐं ग्लौं वन्दितायै नमः ॐ ऐं ग्लौं वसुधायै नमः ॐ ऐं ग्लौं वस्यायै नमः ॐ ऐं ग्लौं व्यात्तास्यायै नमः ॐ ऐं ग्लौं वञ्चिन्यै नमः ॐ ऐं ग्लौं बलायै नमः ॐ ऐं ग्लौं वसुन्धरायै नमः ॐ ऐं ग्लौं वीथिहोत्रायै नमः ॐ ऐं ग्लौं वीथिराजायै नमः ॐ ऐं ग्लौं विहायस्यै नमः ॐ ऐं ग्लौं गर्वायै नमः ॐ ऐं ग्लौं खनिप्रियायै नमः ॐ ऐं ग्लौं काम्यायै नमः ॐ ऐं ग्लौं कमलायै नमः ॐ ऐं ग्लौं काञ्चन्यै नमः ॐ ऐं ग्लौं रमायै नमः ॐ ऐं ग्लौं धूम्रायै नमः ॐ ऐं ग्लौं कपालिन्यै नमः ॐ ऐं ग्लौं वामायै नमः ॐ ऐं ग्लौं कुरुकुल्लायै नमः ॐ ऐं ग्लौं कलावत्यै नमः ॐ ऐं ग्लौं याम्यायै नमः ॐ ऐं ग्लौं आग्नेयै नमः ॐ ऐं ग्लौं धरायै नमः ॐ ऐं ग्लौं धन्यायै नमः ॐ ऐं ग्लौं दायिन्यै नमः ॐ ऐं ग्लौं ध्यानिन्यै नमः ॐ ऐं ग्लौं ध्रुवायै नमः ॐ ऐं ग्लौं धृत्यै नमः ॐ ऐं ग्लौं लक्ष्म्यै नमः ॐ ऐं ग्लौं जयायै नमः ॐ ऐं ग्लौं तुष्ट्यै नमः ॐ ऐं ग्लौं शक्त्यै नमः ॐ ऐं ग्लौं मेधायै नमः ॐ ऐं ग्लौं तपस्विन्यै नमः ॐ ऐं ग्लौं वेदायै नमः ॐ ऐं ग्लौं जयायै नमः ॐ ऐं ग्लौं कृत्यै नमः ॐ ऐं ग्लौं कान्तायै नमः ॐ ऐं ग्लौं स्वाहायै नमः ॐ ऐं ग्लौं शान्त्यै नमः ॐ ऐं ग्लौं तमायै नमः ॐ ऐं ग्लौं रथ्यै नमः ॐ ऐं ग्लौं लज्जायै नमः ॐ ऐं ग्लौं मथ्यै नमः ॐ ऐं ग्लौं स्मृत्यै नमः ॐ ऐं ग्लौं निद्रायै नमः ॐ ऐं ग्लौं तन्त्रायै नमः ॐ ऐं ग्लौं गौर्यै नमः ॐ ऐं ग्लौं शिवायै नमः ॐ ऐं ग्लौं स्वधायै नमः ॐ ऐं ग्लौं चण्ड्यै नमः ॐ ऐं ग्लौं दुर्गायै नमः ॐ ऐं ग्लौं अभयायै नमः ॐ ऐं ग्लौं भीमायै नमः ॐ ऐं ग्लौं भाषायै नमः ॐ ऐं ग्लौं भामायै नमः ॐ ऐं ग्लौं भयानकायै नमः ॐ ऐं ग्लौं भूधरायै नमः ॐ ऐं ग्लौं भयावहायै नमः ॐ ऐं ग्लौं भीरवे नमः ॐ ऐं ग्लौं भैरव्यै नमः ॐ ऐं ग्लौं पङ्गारायै नमः ॐ ऐं ग्लौं पट्यै नमः ॐ ग्लौं गुर्गुरायै नमः ॐ ग्लौं घोषणायै नमः ॐ ग्लौं घोरायै नमः ॐ ग्लौं घोषिण्यै नमः ॐ ग्लौं घोणसंयुक्तायै नमः ॐ ग्लौं घनायै नमः ॐ ग्लौं अघ्नायै नमः ॐ ग्लौं गर्घरायै नमः ॐ ग्लौं घोणयुक्तायै नमः ॐ ग्लौं अघनाशिन्यै नमः ॐ ग्लौं पूर्वायै नमः ॐ ग्लौं आग्नेयै नमः ॐ ग्लौं याम्यायै नमः ॐ ग्लौं नैऋत्यै नमः ॐ ग्लौं वायव्यै नमः ॐ ग्लौं उत्तरायै नमः ॐ ग्लौं वारुण्यै नमः ॐ ग्लौं ऐशान्यै नमः ॐ ग्लौं ऊर्ध्वायै नमः ॐ ग्लौं अधस्थितायै नमः ॐ ग्लौं पृष्ठायै नमः ॐ ग्लौं दक्षायै नमः ॐ ग्लौं अग्रगायै नमः ॐ ग्लौं वामगायै नमः ॐ ग्लौं हृङ्गायै नमः ॐ ग्लौं नाभिकायै नमः ॐ ग्लौं ब्रह्मरन्ध्रायै नमः ॐ ग्लौं अर्कायै नमः ॐ ग्लौं स्वर्गायै नमः ॐ ग्लौं पाताललगायै नमः ॐ ग्लौं भूमिगायै नमः ॐ ग्लौं ऐम्यै नमः ॐ ग्लौं ह्रियै नमः ॐ ग्लौं श्रियै नमः ॐ ग्लौं क्लीम्यै नमः ॐ ग्लौं तीर्थायै नमः ॐ ग्लौं गत्यै नमः ॐ ग्लौं प्रीत्यै नमः ॐ ग्लौं त्रियै नमः ॐ ग्लौं गिरे नमः ॐ ग्लौं कलायै नमः ॐ ग्लौं अव्ययायै नमः ॐ ग्लौं ऋग्रूपायै नमः ॐ ग्लौं यजुर्रूपायै नमः ॐ ग्लौं सामरूपायै नमः ॐ ग्लौं परायै नमः ॐ ग्लौं यात्रिण्यै नमः ॐ ग्लौं उदुम्बरायै नमः ॐ ग्लौं गदाधारिण्यै नमः ॐ ग्लौं असिधारिण्यै नमः ॐ ग्लौं शक्तिधारिण्यै नमः ॐ ग्लौं शापधारिण्यै नमः ॐ ग्लौं इक्षुधारिण्यै नमः ॐ ग्लौं शूलधारिण्यै नमः ॐ ग्लौं चक्रधारिण्यै नमः ॐ ग्लौं सृष्टिधारिण्यै नमः ॐ ग्लौं झरत्यै नमः ॐ ग्लौं युवत्यै नमः ॐ ग्लौं बालायै नमः ॐ ग्लौं चतुरङ्गफलोद्घटायै नमः ॐ ग्लौं सत्यायै नमः ॐ ग्लौं अक्षरायै नमः ॐ ग्लौं आदिभेद्र्यै नमः ॐ ग्लौं धात्र्यै नमः ॐ ग्लौं भर्त्र्यै नमः ॐ ग्लौं भरायै नमः ॐ ग्लौं भटवे नमः ॐ ग्लौं क्षेत्रज्ञायै नमः ॐ ग्लौं कम्पिन्यै नमः ॐ ग्लौं ज्येष्ठायै नमः ॐ ग्लौं दूरदर्शायै नमः ॐ ग्लौं धुरन्धरायै नमः ॐ ग्लौं मालिन्यै नमः ॐ ग्लौं मानिन्यै नमः ॐ ग्लौं मात्रे नमः ॐ ग्लौं माननीयायै नमः ॐ ग्लौं मनस्विन्यै नमः ॐ ग्लौं महोद्घटायै नमः ॐ ग्लौं मन्युकायै नमः ॐ ग्लौं मनुरूपायै नमः ॐ ऐं ग्लौं मनोजवायै नमः ॐ ऐं ग्लौं मेधस्विन्यै नमः ॐ ऐं ग्लौं मध्यारथायै नमः ॐ ऐं ग्लौं मधुपायै नमः ॐ ऐं ग्लौं मङ्गलायै नमः ॐ ऐं ग्लौं अमरायै नमः ॐ ऐं ग्लौं मायायै नमः ॐ ऐं ग्लौं मात्रे नमः ॐ ऐं ग्लौं आम्यहरायै नमः ॐ ऐं ग्लौं मृडान्यै नमः ॐ ऐं ग्लौं महिलायै नमः ॐ ऐं ग्लौं मृत्यै नमः ॐ ऐं ग्लौं महादेव्यै नमः ॐ ऐं ग्लौं मोहकर्यै नमः ॐ ऐं ग्लौं मञ्जवे नमः ॐ ऐं ग्लौं मृत्युञ्जयायै नमः ॐ ऐं ग्लौं अमलायै नमः ॐ ऐं ग्लौं मांसलायै नमः ॐ ऐं ग्लौं मानवायै नमः ॐ ऐं ग्लौं मूलायै नमः ॐ ऐं ग्लौं महालसायै नमः ॐ ऐं ग्लौं मृगाङ्गकार्यै नमः ॐ ऐं ग्लौं मर्कालसायै नमः ॐ ऐं ग्लौं मीनकायै नमः ॐ ऐं ग्लौं श्याममहिष्यै नमः ॐ ऐं ग्लौं मदन्दिकायै नमः ॐ ऐं ग्लौं मूर्छापहायै नमः ॐ ऐं ग्लौं मोहापहायै नमः ॐ ऐं ग्लौं मृषापहायै नमः ॐ ऐं ग्लौं मोहापहायै नमः ॐ ऐं ग्लौं मदापहायै नमः ॐ ऐं ग्लौं मृत्यपहायै नमः ॐ ऐं ग्लौं मलापहायै नमः ॐ ऐं ग्लौं सिंहाननायै नमः ॐ ऐं ग्लौं व्याघ्राननायै नमः ॐ ऐं ग्लौं कुक्षाननायै नमः ॐ ऐं ग्लौं महिषाननायै नमः ॐ ऐं ग्लौं मृगाननायै नमः ॐ ऐं ग्लौं क्रोडाननायै नमः ॐ ऐं ग्लौं धुन्यै नमः ॐ ऐं ग्लौं धरिण्यै नमः ॐ ऐं ग्लौं धारिण्यै नमः ॐ ऐं ग्लौं केतवे नमः ॐ ऐं ग्लौं दरिद्र्यै नमः ॐ ऐं ग्लौं धावत्यै नमः ॐ ऐं ग्लौं धवायै नमः ॐ ऐं ग्लौं धर्मध्वनायै नमः ॐ ऐं ग्लौं ज्ञानपरायै नमः ॐ ऐं ग्लौं धनप्रदायै नमः ॐ ऐं ग्लौं धान्यप्रदायै नमः ॐ ऐं ग्लौं धराप्रदायै नमः ॐ ऐं ग्लौं पापनाशिन्यै नमः ॐ ऐं ग्लौं दोषनाशिन्यै नमः ॐ ऐं ग्लौं रिपुनाशिन्यै नमः ॐ ऐं ग्लौं व्याधिनाशिन्यै नमः ॐ ऐं ग्लौं सिद्धिदायिन्यै नमः ॐ ऐं ग्लौं कलारूपिण्यै नमः ॐ ऐं ग्लौं काष्ठारूपिण्यै नमः ॐ ऐं ग्लौं क्षमारूपिण्यै नमः ॐ ऐं ग्लौं पक्षरूपिण्यै नमः ॐ ऐं ग्लौं अहोरूपिण्यै नमः ॐ ऐं ग्लौं त्रुटिरूपिण्यै नमः ॐ ऐं ग्लौं स्वासरूपिण्यै नमः ॐ ऐं ग्लौं समृद्धारूपिण्यै नमः ॐ ऐं ग्लौं सुभुजायै नमः ॐ ऐं ग्लौं रौद्र्यै नमः ॐ ऐं ग्लौं राधायै नमः ॐ ऐं ग्लौं रागायै नमः ॐ ऐं ग्लौं रमायै नमः ॐ ऐं ग्लौं शरण्यै नमः ॐ ऐं ग्लौं रामायै नमः ॐ ऐं ग्लौं रतिप्रियायै नमः ॐ ऐं ग्लौं हृष्टायै नमः ॐ ऐं ग्लौं रक्षिण्यै नमः ॐ ऐं ग्लौं रविमध्यगायै नमः ॐ ऐं ग्लौं रजन्यै नमः ॐ ऐं ग्लौं रमण्यै नमः ॐ ऐं ग्लौं रेवायै नमः ॐ ऐं ग्लौं रङ्गण्यै नमः ॐ ऐं ग्लौं रञ्जन्यै नमः ॐ ऐं ग्लौं रमायै नमः ॐ ऐं ग्लौं रोषायै नमः ॐ ऐं ग्लौं रोषवत्यै नमः ॐ ऐं ग्लौं గర్విజయప్రదాయై నమః ఓం ఐం గ్లౌం రథాయై నమః ఓం ఐం గ్లౌం రూక్షాయై నమః ఓం ఐం గ్లౌం రూపవద్యై నమః ఓం ఐం గ్లౌం సరాస్యై నమః ఓం ఐం గ్లౌం రుద్రాణ్యై నమః ఓం ఐం గ్లౌం రణపండితాయై నమః ఓం ఐం గ్లౌం గంగాయై నమః ఓం ఐం గ్లౌం యమునాయై నమః ఓం ఐం గ్లౌం సరస్వత్యై నమః ఓం ఐం గ్లౌం స్వసవే నమః ఓం ఐం గ్లౌం మత్వై నమః ఓం ఐం గ్లౌం కండక్యై నమః ఓం ఐం గ్లౌం తుంగభద్రాయై నమః ఓం ఐం గ్లౌం కావేర్యై నమః ఓం ఐం గ్లౌం కౌశిక్యై నమః ఓం ఐం గ్లౌం మడవే నమః ఓం ఐం గ్లౌం ఖడ్గాయై నమః ఓం ఐం గ్లౌం ఉరగవత్యై నమః ఓం ఐం గ్లౌం సారాయై నమః ఓం ఐం గ్లౌం సహస్రాక్షాయై నమః ఓం ఐం గ్లౌం ప్రదర్ధనాయై నమః ఓం ఐం గ్లౌం సర్వజ్ఞాయై నమః ఓం ఐం గ్లౌం శాంకర్యై నమః ఓం ఐం గ్లౌం శాస్త్రియై నమః ఓం ఐం గ్లౌం జడాధారిణ్యై నమః ఓం ఐం గ్లౌం అయోధసాయై నమః ఓం ఐం గ్లౌం యావత్యై నమః ఓం ఐం గ్లౌం సౌరభ్యై నమః ఓం ఐం గ్లౌం కుబ్జాయై నమః ఓం ఐం గ్లౌం వక్రతుండాయై నమః ఓం ఐం గ్లౌం వదోగ్యతాయై నమః ఓం ఐం గ్లౌం చంద్రపీఠాయై నమః ఓం ఐం గ్లౌం వేదవేద్యాయై నమః ఓం ఐం గ్లౌం సంకిన్యై నమః ఓం ఐం గ్లౌం నీలోచితాయై నమః ఓం ఐం గ్లౌం ధ్యానాతీతాయై నమః ఓం ఐం గ్లౌం అపరిచ్ఛేద్యాయై నమః ఓం ఐం గ్లౌం మృత్యురూపాయై నమః ఓం ఐం గ్లౌం త్రివర్గదాయై నమః ఓం ఐం గ్లౌం అరూపాయై నమః ఓం ఐం గ్లౌం బహురూపాయై నమః ఓం ఐం గ్లౌం నానారూపాయై నమః ఓం ఐం గ్లౌం నతాననాయై నమః ఓం ఐం గ్లౌం వృషాకపయే నమః ఓం ఐం గ్లౌం వృషారూఢాయై నమః ఓం ఐం గ్లౌం వృషేష్యై నమః ఓం ఐం గ్లౌం వృషవాహనాయై నమః ఓం ఐం గ్లౌం వృషప్రియాయై నమః ఓం ఐం గ్లౌం వృషావర్తాయై నమః ఓం ఐం గ్లౌం వృషపర్వాయై నమః ఓం ఐం గ్లౌం వృషాకృత్యై నమః ఓం ఐం గ్లౌం కోదండిన్యై నమః ఓం ఐం గ్లౌం నాగచూడాయై నమః ఓం ఐం గ్లౌం చక్షువ్యాఖ్యాయై నమః ఓం ఐం గ్లౌం పరమాత్మికాయై నమః ఓం ఐం గ్లౌం దుర్వాసాయై నమః ఓం ఐం గ్లౌం దుర్గహాయై నమః ఓం ఐం గ్లౌం దేవ్యై నమః ఓం ఐం గ్లౌం దురావాసాయై నమః ఓం ఐం గ్లౌం దురారిహాయై నమః ఓం ఐం గ్లౌం దుర్గాయై నమః ఓం ఐం గ్లౌం రాధాయై నమః ఓం ఐం గ్లౌం దుఃఖహంత్ర్యై నమః ఓం ఐం గ్లౌం దురారాధ్యై నమః ఓం ఐం గ్లౌం దయీయస్యై నమః ఓం ఐం గ్లౌం దురావాసాయై నమః ఓం ఐం గ్లౌం దుఃప్రహస్తాయై నమః ఓం ఐం గ్లౌం దుఃఖంబాయై నమః ఓం ఐం గ్లౌం గృహిణ్యై నమః ఓం ఐం గ్లౌం సువేణ్యై నమః ఓం ఐం గ్లౌం స్మరణ్యై నమః ఓం ఐం గ్లౌం శ్యామాయై నమః ఓం ఐం గ్లౌం మృగదాపిన్యై నమః ఓం ఐం గ్లౌం వ్యాధదాపిన్యై నమః ఓం ఐం గ్లౌం అర్గదాపిన్యై నమః ఓం ఐం గ్లౌం దుర్గాయై నమః ఓం ఐం గ్లౌం దార్క్ష్యై నమః ఓం ఐం గ్లౌం పాశుపత్యై నమః ఓం ఐం గ్లౌం గౌణభ్యై నమః ఓం ఐం గ్లౌం గుణపాశనాయై నమః ఓం ఐం గ్లౌం తపర్దిన్యై నమః ఓం ఐం గ్లౌం కామకామాయై నమః ఓం ఐం గ్లౌం కమనీయాయై నమః ఓం ఐం గ్లౌం కలోజ్వలాయై నమః ఓం ఐం గ్లౌం కాసావహృదే నమః ఓం ఐం గ్లౌం కారకాణ్యై నమః ఓం ఐం గ్లౌం कम्बुकण्ठ्यै नमः ॐ ऐं ग्लौं कृतागमायै नमः ॐ ऐं ग्लौं कर्कशायै नमः ॐ ऐं ग्लौं कारणायै नमः ॐ ऐं ग्लौं कान्तायै नमः ॐ ऐं ग्लौं कल्पायै नमः ॐ ऐं ग्लौं अकल्पायै नमः ॐ ऐं ग्लौं कटङ्कटायै नमः ॐ ऐं ग्लौं श्मशाननिलयायै नमः ॐ ऐं ग्लौं बिन्दायै नमः ॐ ऐं ग्लौं गजारूढायै नमः ॐ ऐं ग्लौं गजापहायै नमः ॐ ऐं ग्लौं तत्प्रियायै नमः ॐ ऐं ग्लौं तत्परायै नमः ॐ ऐं ग्लौं रायायै नमः ॐ ऐं ग्लौं स्वर्भानवे नमः ॐ ऐं ग्लौं कालवञ्चिन्यै नमः ॐ ऐं ग्लौं शाखायै नमः ॐ ऐं ग्लौं विशिखायै नमः ॐ ऐं ग्लौं कोशायै नमः ॐ ऐं ग्लौं सुशाखायै नमः ॐ ऐं ग्लौं केशपाशिन्यै नमः ॐ ऐं ग्लौं व्यङ्ग्यायै नमः ॐ ऐं ग्लौं सुशाङ्गायै नमः ॐ ऐं ग्लौं वामाङ्गायै नमः ॐ ऐं ग्लौं नीलाङ्गायै नमः ॐ ऐं ग्लौं अनङ्गरूपिण्यै नमः ॐ ऐं ग्लौं साङ्गोपाङ्गायै नमः ॐ ऐं ग्लौं सारङ्गायै नमः ॐ ऐं ग्लौं शुभाङ्गायै नमः ॐ ऐं ग्लौं रङ्गरूपिण्यै नमः ॐ ऐं ग्लौं भद्रायै नमः ॐ ऐं ग्लौं सुभद्रायै नमः ॐ ऐं ग्लौं भद्राक्ष्यै नमः ॐ ऐं ग्लौं सिंहिकायै नमः ॐ ऐं ग्लौं विनतायै नमः ॐ ऐं ग्लौं आदित्यायै नमः ॐ ऐं ग्लौं हृदयायै नमः ॐ ऐं ग्लौं अवध्यायै नमः ॐ ऐं ग्लौं शुभध्यायै नमः ॐ ऐं ग्लौं गद्यप्रियायै नमः ॐ ऐं ग्लौं पद्यप्रियायै नमः ॐ ऐं ग्लौं प्रसवे नमः ॐ ऐं ग्लौं चर्चिकायै नमः ॐ ऐं ग्लौं भोगवत्यै नमः ॐ ऐं ग्लौं अम्बायै नमः ॐ ऐं ग्लौं सारस्यै नमः ॐ ऐं ग्लौं सवायै नमः ॐ ऐं ग्लौं नट्यै नमः ॐ ऐं ग्लौं योगिन्यै नमः ॐ ऐं ग्लौं पुष्कलायै नमः ॐ ऐं ग्लौं अनन्तायै नमः ॐ ऐं ग्लौं परायै नमः ॐ ऐं ग्लौं साङ्ख्यायै नमः ॐ ऐं ग्लौं शस्यै नमः ॐ ऐं ग्लौं सत्यै नमः ॐ ऐं ग्लौं निम्नकायै नमः ॐ ऐं ग्लौं निम्ननाभायै नमः ॐ ऐं ग्लौं सरिष्ण्यै नमः ॐ ऐं ग्लौं जागृत्यै नमः ॐ ऐं ग्लौं लिप्यै नमः ॐ ऐं ग्लौं दमयन्त्यै नमः ॐ ऐं ग्लौं दमायै नमः ॐ ऐं ग्लौं दण्डायै नमः ॐ ऐं ग्लौं उद्दण्डिन्यै नमः ॐ ऐं ग्लौं दारदायिकायै नमः ॐ ऐं ग्लौं दीपिन्यै नमः ॐ ऐं ग्लौं दाविन्यै नमः ॐ ऐं ग्लौं दात्र्यै नमः ॐ ऐं ग्लौं दक्षकन्यायै नमः ॐ ऐं ग्लौं धरते नमः ॐ ऐं ग्लौं दाहिन्यै नमः ॐ ऐं ग्लौं द्रविण्यै नमः ॐ ऐं ग्लौं दर्व्यै नमः ॐ ऐं ग्लौं दण्डिन्यै नमः ॐ ऐं ग्लौं दण्डनायिकायै नमः ॐ ऐं ग्लौं दानप्रियायै नमः ॐ ऐं ग्लौं दोषहन्त्र्यै नमः ॐ ऐं ग्लौं दुःखनाशिन्यै नमः ॐ ऐं ग्लौं दारिद्र्यनाशिन्यै नमः ॐ ऐं ग्लौं दोषदायै नमः ॐ ऐं ग्लौं दोषकृते नमः ॐ ऐं ग्लौं दोक्र्यै नमः ॐ ऐं ग्लौं दोहत्यै नमः ॐ ऐं ग्लौं देविकायै नमः ॐ ऐं ग्लौं अधनायै नमः ॐ ऐं ग्लौं दर्विकर्यै नमः ॐ ऐं ग्लौं दुर्वलितायै नमः ॐ ऐं ग्लौं दुर्युगायै नमः ॐ ऐं ग्लौं अद्वयवादिन्यै नमः ॐ ऐं ग्लौं चरायै नमः ॐ ऐं ग्लौं अश्वायै नमः ॐ ऐं ग्लौं अनन्तायै नमः ॐ ऐं ग्लौं वृष्ट्यै नमः ॐ ऐं ग्लौं उन्मत्तायै नमः ॐ ऐं ग्लौं कमलायै नमः ॐ ऐं ग्लौं अलसायै नमः ॐ ऐं ग्लौं धारिण्यै नमः ॐ ऐं ग्लौं तारकान्तरायै नमः ॐ ऐं ग्लौं परमात्मने नमः ॐ ऐं ग्लौं कुब्जलोचनायै नमः ॐ ऐं ग्लौं इन्दवे नमः ॐ ऐं ग्लौं हिरण्यकवचायै नमः ॐ ऐं ग्लौं व्यवस्थायै नमः ॐ ऐं ग्लौं व्यवसायिकायै नमः ॐ ऐं ग्लौं ईशनन्दायै नमः ॐ ऐं ग्लौं नत्यै नमः ॐ ऐं ग्लौं नाक्यै नमः ॐ ऐं ग्लौं यक्षिण्यै नमः ॐ ऐं ग्लौं सर्पिण्यै नमः ॐ ऐं ग्लौं वर्यै नमः ॐ ऐं ग्लौं सुधायै नमः ॐ ऐं ग्लौं विश्वसखायै नमः ॐ ऐं ग्लौं शुद्धायै नमः ॐ ऐं ग्लौं सुवर्णायै नमः ॐ ऐं ग्लौं अङ्गधारिण्यै नमः ॐ ऐं ग्लौं जनन्यै नमः ॐ ऐं ग्लौं प्रतिभागैरवे नमः ॐ ऐं ग्लौं साम्राज्ञै नमः ॐ ऐं ग्लौं संविधे नमः ॐ ऐं ग्लौं उत्तमायै नमः ॐ ऐं ग्लौं अमेयायै नमः ॐ ऐं ग्लौं अरिष्टधमन्यै नमः ॐ ऐं ग्लौं पिङ्गळायै नमः ॐ ऐं ग्लौं लिङ्गवारुण्यै नमः ॐ ऐं ग्लौं चामुण्डायै नमः ॐ ऐं ग्लौं प्लाविन्यै नमः ॐ ऐं ग्लौं हालायै नमः ॐ ऐं ग्लौं बृहते नमः ॐ ऐं ग्लौं ज्योतिष्यै नमः ॐ ऐं ग्लौं गुरुक्रमायै नमः ॐ ऐं ग्लौं सुप्रतीकायै नमः ॐ ऐं ग्लौं सुरायै नमः ॐ ऐं ग्लौं अव्यवाह्यै नमः ॐ ऐं ग्लौं प्रलापिन्यै नमः ॐ ऐं ग्लौं सपस्यै नमः ॐ ऐं ग्लौं माग्विन्यै नमः ॐ ऐं ग्लौं ज्येष्ठायै नमः ॐ ऐं ग्लौं शिशिरायै नमः ॐ ऐं ग्लौं ज्वालिन्यै नमः ॐ ऐं ग्लौं रुच्यै नमः ॐ ऐं ग्लौं शुक्लायै नमः ॐ ऐं ग्लौं शुक्रायै नमः ॐ ऐं ग्लौं शुचायै नमः ॐ ऐं ग्लौं शोकायै नमः ॐ ऐं ग्लौं सुख्यै नमः ॐ ऐं ग्लौं भेद्यै नमः।